अस्य श्री केतु कवच स्तोत्र मंत्रस्य त्र्यंबक ऋषिः अनुष्टुप् छन्दः केतुर्देवता कं बीजं नमः शक्तिः केतुरिति कीलकम् श्री केतु प्रीत्यर्थं जपे विनियोगः। ओम केतुं कराल वदनं चित्रवर्ण किरीटिनं सदा केतुं भजाकारं ग्रहेश्वरम् ॐ केतुं करालवदनं चित्रवर्णकिरीटिनम् प्रणमामि सदा केतुं भजाकारं ग्रहेश्वरम् शिरः पातु भालं धूम्रसमद्युतिः पातु नेत्रे पिङ्गलाक्षः श्रुति मे रक्तलोचनः सुवर्णाभिश्चिबुकं सिंहिकासुतः पातु कण्ठचमे केतु स्कन्धो पातु ग्रहाधिपः पातु सुवर्णाभिश्चिबुकं सिंहिकासुतः पातु कण्ठचमे केतु स्कन्धो पातु ग्रहाधिपः पातु महाग्रहः सिंहासनः कटिं पातु मध्यं पातु महासुरः तुमः शीर्षो जानुनी मेति कोपनः पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः गुरु पातु महाशीर्षो जानुनी मेति कोपनः पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः कवचं दिव्यं सर्वरोगविनाशनं सर्वशत्रुविनाशं च धारणाद्विजयी भवेत्